अथ शङ्कराष्टकम् शीर्षजटागणभारं गरलाहारं समस्तसंहारं कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम् कृतनरमस्तकभालं कालं कालस्य कोमलं वन्दे कोपेक्षणहतकामं स्वात्मा रामं नगेन्द्रजावामं संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागं विगतविषयरसरागं भागं यज्ञेषु विभ्रतं वन्दे त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम् लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे सुरसरिताप्लुतकेशं त्रिदशकुलेशं हृदालयावेशं विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकं परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे यस्तु एदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यं पठति समाहितचेता प्राप्नोत्यन्ते सशैवमेव पदम् इति ब्रह्मानन्दविरचितं शङ्कराष्टकं सम्पूर्णम्।